इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। लोकसभा निर्वाचनस्य षष्ठम चरणीय मतदानाय सर्वाः सज्जताः सम्पूरिताः सन्ति, मतदानं च अद्य भविष्यति। अस्मिन् चरणे बिहारस्य अष्ट, हरियाणायाः सर्वाणि दश, जम्मूकश्मीरस्य एकं, झारखण्डस्य चत्वारि, देहल्याः सर्वाणि सप्त, ओडिशायाः षड्, उत्तरप्रदेशस्य चतुर्दश, पश्चिमबंगालस्य अष्ट आसनानि सम्मिलितानि सन्ति। चरणेऽस्मिन् प्रमुखाभ्यर्थित्वेन केन्द्रीयमन्त्रिणः, भारतीय जनता पार्टीति दलस्य वरिष्ठ नेतारश्च सन्ति, येषु धर्मेन्द्र प्रधानः, मेनका गांधी, मनोहर लाल खट्टरः, संवित पात्रा, बांसुरी स्वराजः, मनोज तिवारी। कांग्रेसस्य दीपेन्द्र सिंह हुड्डा, कुमारी सैलजा, राजबब्बरः, कन्हैया कुमारः। समाजवादी पार्टीति दलस्य धर्मेन्द्र यादवः, पीडीपी दल प्रमुखा महबूबा मुफ्ती च वर्तन्ते। चरणेऽस्मिन् नवाशीत्यधिकाष्टशतं जनाः प्रत्याशीभूताः सन्ति। मतदानम् अद्य प्रातः सप्तवादनतः सायं षड्वादनपर्यन्तं कारयिष्यते। जनपद राज्ययोः निर्वाचनाधिकारिणः परामर्शं प्रदत्तवन्तः यत् उष्णतापकालेऽस्मिन् सुरक्षायाः सर्वाः प्रबन्धाः नियोजयितव्याः। राष्ट्रिय राजधान्यां नवदिल्ल्याम् आहत्य द्विषष्ठ्यधिकैकशतं प्रत्याशिनः निर्वाचनिक समराङ्गणे सन्ति। लोकसभा निर्वाचनस्य अन्तिमाय सप्तमाय च चरणाय प्रचाराभियानं तीव्रं जातम्। विविध राजनीतिक दलानां शीर्षनेतारः मतदातृन् स्वपक्षे आक्रष्टुं सर्वसम्भव प्रयासान् कुर्वन्ति। अस्य चरणस्य मतदानं जून मासस्य प्रथमे दिनांके भविष्यति। सप्त चरणेऽस्मिन् उत्तरप्रदेश पंजाबयोः त्रयोदश, पश्चिमबंगालस्य नव, बिहारस्य अष्ट, ओडिशायाः षड्, हिमाचलप्रदेशस्य चत्वारि, झारखण्डस्य त्रीणि, केन्द्रशासितप्रदेशस्य चण्डीगढस्य एकम् आसनेभ्यः मतदानं भविष्यति। अस्मै चरणाय प्रतिस्पर्धायै चतुरधिक नवशतं प्रत्याशिनः संघर्षरताः भविष्यन्ति। स्वीय प्रचाराभियानावधौ प्रधानमन्त्री नरेन्द्रमोदी हिमाचलप्रदेशस्य शिमलानगरे एकां जनसभां सम्बोधितवान्। असौ कथितवान् यत् सत्ताग्रहणानन्तरं एनडीए प्रशासनेन सामान्यवर्गस्य निर्धनेभ्यः 10% आरक्षणं प्रदत्तम्। एतदर्थमेव अद्य साम्प्रतिके समये नैके जनाः वृत्त्यवसरान् प्राप्नुवन्ति। इण्डी संयुतेः राजद, कांग्रेस इत्यादीनां दलानां नेतारः अपि प्रत्याशिनां समर्थने जनसभाश्च कुर्वन्ति। सर्वेषां चरणानां मतदानं जूनमासस्य चतुर्थे दिनांके भविष्यति। ह्यः पापुआ न्यू गिनी देशस्य एकस्मिन् दूरस्थे क्षेत्रे भूस्खलनात् न्यूनातिन्यूनं 100 जनाः मृताः इति सूचना अधिगता। वार्ता प्रतिवेदनानुसारि द्वीपराष्ट्रस्य एंगा प्रान्ते काउकलाम ग्रामे भूस्खलनेन गृहाणि पतितानि, मृतकाणां संख्या वर्धते इति आशंका अस्ति। भारत ऋतु विज्ञान विभागेन उक्तं यत् रविवासरे पश्चिमबंगस्य समीपस्थस्य बांग्लादेशस्य च तटेष् रोमाल इति चक्रवातः आगमिष्यति इति आशंका विद्यते। अस्माकं संवाददाता उक्तवान् यत् चक्रवातः बंगस्य खात्यां पश्चिमबंगस्य दक्षिण 24 परगनामण्डलस्य सागरद्वीपात् प्रायः 60-70 किलोमीटर दूरे अस्ति। आईपीएल इत्यस्यां प्रतिस्पर्धायां गतसायं चेन्नईनगरे द्वितीये प्रावृष्टचक्रे सनराइजर्स हैदराबाद दलेन राजस्थान रॉयल्स दलं 37 धावनांकैः पराजितम् इति वार्ताः।